इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीयः मन्त्रिमण्डलेन ह्यः महार्घता व्यये वृद्धे निर्णयः स्वीकृतः। ततः केन्द्रीय कर्मचारिभ्यः सेवानिवृत्ति वेतनभोगिभ्यश्च प्रत्येकं प्रतिशतं त्रिमितः महार्घता राशिः प्रदास्यते। ह्यः नवदिल्ल्यां मन्त्रिमण्डलीयोपवेशनानन्तरं वार्ताहरेभ्यः इयं सूचना प्रसारणमन्त्रिणा अश्विनीवैष्णवेन प्रदत्ता। तेन प्रोक्तं यत् अनेन निर्णयेन प्रायः 51.2 लक्ष केन्द्रीय कर्मचारिणः 68 लक्षाधिक सेवानिवृत्त कर्मचारिणश्च लाभान्विताः भविष्यन्ति। निर्णयोऽयं गत जुलाई मासस्य प्रथम दिनांकात् प्रभावी भविष्यति। आर्थिक प्रकरण सम्बद्ध केन्द्रीय मन्त्रिमण्डल समित्या आदेशम् इदमपि निर्णीतं यत् 58.62 कोटि रूप्यक व्ययेन 57 संख्यकाः नवीनाः केन्द्रीय विद्यालयाः अपि उद्घाटयिष्यन्ते। श्रीवैष्णवेन प्रोक्तं यत् एतादृशेषु जनपदेषु अपि 20+ विद्यालयाः उद्घाटयिष्यन्ते, यत्र अधुना पर्यन्तं कोऽपि केन्द्रीयविद्यालयो नास्ति। नवीनविद्यालय उद्घाटनेन शिक्षकाणां 64% अतिरिक्तपदानि सर्जितानि भविष्यन्ति। 87,000 छात्राः चापि लाभान्विताः भविष्यन्ति। सममेव केन्द्रीय मन्त्रिमण्डलस्य आर्थिक समित्या आगामि वित्तवर्षात् शारदीय शस्यानां न्यूनतम समर्थन मूल्ये वृद्धि अपि अनुमाना। राष्ट्रिय स्वयंसेवक संघस्य शतवार्षिक उत्सवस्य अवसरे अद्य प्रातः नागपुरस्य रेशम बाग नगरे पूर्व राष्ट्रपतेः रामनाथ कोविन्दस्य उपस्थितौ मुख्य कार्यक्रमः भविष्यति। सरसंघ संचालकः डॉ. भागवतः विजयदशम्यां मुख्य भाषणं करिष्यति, तथा च नागपुरे अयं समारोहं द्रष्टुं देशविदेशाच्च विशिष्टातिथयः आमन्त्रिताः सन्ति। अस्मिन् वर्षे विशेषकार्यक्रमे प्रायः 21,000 यावत् स्वयंसेवकानाम् उपस्थितेः सम्भावना अस्ति। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् भारत यूरोपीय मुक्त व्यापार संघस्य व्यापार आर्थिक सहभागित्व सन्धिः यूरोपदेशेन सह भारतस्य आर्थिक सम्बन्धस्य निर्णायक क्षणः अस्ति। ह्यः नवदिल्ल्यां भारत EFTA समृद्धि शिखर सम्मेलने स्वस्य मुख्य भाषणे श्रीगोयलः उक्तवान् यत् एतत् मित्रेषु विश्वसनीय सहभागितायाः प्रतिनिधित्वं करोति।
There are areas in professions like nursing, accountancy, technology, artificial intelligence. There are areas in education, audiovisual services, culture, tourism, recreation. So many areas that we can capture together. In industry, I think work around life sciences, clean energy, working together on precision engineering and manufacturing, food processing, lots that we can together take to the rest of the world.
समग्र राष्ट्रम् अद्य राष्ट्रपितुः महात्मा गांधिनः 50+ जन्म जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्पयति। अत्रावसरे राष्ट्रिय राजधान्यां नवदिल्ल्यां राजघाट स्थितस्य महात्मा गांधिनः समाधिस्थले सर्वधर्म प्रार्थना सभापि आयोज्यते। राष्ट्रम् अद्य पूर्व प्रधानमन्त्रिणः लाल बहादुर शास्त्रिणः जन्म जयन्त्यवसरेऽपि श्रद्धाकुसुमानि समर्पयति। राष्ट्रपतिपदासीना द्रौपदी मुर्मू जनैः सत्य अहिंसा प्रेम पवित्रता इत्येतेषां मूल्यानि आत्मसात् कर्तुम् आग्रहं कृतवती, अपि च महात्मा गांधिनः स्वप्नानां भारतस्य विचारेण सह देशसमाजयोः विकास गतिं नैरन्तर्येण समेधतुम् आह्वानमपि कृतवती। अद्य देशे सर्वत्र विजयदशमी दशहरा उत्सवः आचर्यते। भगवतः श्रीरामस्य रावणोपरि विजयस्य स्मरणे अयमुत्सवः आचर्यते। अस्मिन् दिने नवरात्रि दुर्गापूजायाः समापनम् अपि भवति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मू देशवासिभ्यः शुभकामनाः प्रदत्तवती। इति वार्ताः।